राम राम राम। यावत् सर्वे आगमिष्यन्ति तावत् ध्यानश्लोकं वदामः। गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो। गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो। पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं, व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्, अद्वैतामृतवर्षिणीं भगवतीं, अष्टादशाध्यायिनीं अम्बत्वाम् अनुसन्दधामि भगवद्गीते भवद्वेषिणीम्। नमोऽस्तु ते व्यासविशालबुद्धे, फुल्लारविन्दायतपत्रनेत्र, येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः। वसुदेवसुतं देवं कंसचाणूरमर्दनं, देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं, यत्कृपातमहं वन्दे परमानन्दमाधवम्। सर्वेभ्यः राम राम राम। स्वागतम्। सम्यक् श्रूयते वा? राम राम राम। सम्यक् श्रूयते वा तत्र? तत्र सम्यक् श्रोतुं शक्यते वा? तत्र अधः लेखितुं शक्यते चाट् मध्ये, श्रूयते वा न वा इति। भवतु, अग्रे गच्छामः। विंशतितम श्लोके तत्र अस्माभिः दृष्टमस्ति, व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा तत्र अर्जुनः, कपिध्वजः अर्जुनः किं करोति, सः धनुः उद्यम्य स्वचापं, गाण्डीवं चापं स्वीकृत्य सः हृषीकेशं वदति, इदं वाक्यं वदति किमिति। तत्र श्लोका 21 तत्र द्वितीयवाक्ये अस्माभिः दृष्टम् अस्ति, हे अच्युत, उभयोः सेनयोः मध्ये मे रथं स्थापय इति सः वदति। उभयोः कौरव पाण्डवयोः सेनयोः मध्ये अवान्तरे अन्तरे, तत्र यथा मया सर्वान् योद्धारान् द्रष्टुं शक्यते तथा उभयोः सेनयोः मध्ये मे रथं स्थापय इति अर्जुनः हृषीकेशं स्वसारथिं कृष्णं प्रति वदति। उभयोः सेनयोः मध्ये मे रथं स्थापय। एतावत्पर्यन्तम् अस्माभिः गतकक्षायां दृष्टमस्ति, तत्र अच्युत, हे अच्युत इति सः आह्वयति। अच्युत इत्युक्ते यः कदापि च्युतिं न लभते, यः कदापि अस्मान् च्युतौ na sthapayati. Both ways it is, it can be, it is an important word, achyuta. One who by himself will never be fallen. Because a guru or a person whom we are worshipping should always be impeccable, who should be should not have any mistakes or should not be have any avagunas in them. So that kind of avaguna rahita person who will never fall down at any point of time because of any reasons, tavat achyutaha, that was one of the meaning. And also, and who can never be defeated can also be one of the meaning, who can never be defeated by anybody. The other important meaning is achyutaha, who will never leave us in any difficult situation. In any difficult situation, when we call him achyutaha, he will not leave us there only. He will always try to protect us and bring us back to normal. That is also the meaning of achyuta. So at this juncture, though Krishna is seated as a charioteer as a driver for Arjuna, still Arjuna gives him all the due respect and finally also tells that hey, achyuta is the word which is used, that is, at any difficulty point of time you will not let us down. So that kind of, oh Krishna, please place my chariot in the mid of both the armies, ubayoho kaurava pandavayoho senayoho madhye me ratham sthapaya. So these were the words which we saw in the last class. We saw the importance of the word kapidhvaja. Kapidhvaja again was goes back to the story in Vanaparva. Yatra bhimaha ekada saugandhika pushpaharanaya vane gachchanasti draupadi krite saha vane gachchanasti tada saha vriddha kapim ekam pashyati tatra vriddha kapihi madhye margaha saha upavishya taha nidram kurvanasti tatra jeshtaha shreshtaha va jeevinah ye santi chete, we cannot cross over and go. At any point of time, when somebody is sleeping down or when somebody, something is lying, we do not always cross over, put our feet over and go, because that will be a mark of disrespect. Tatrapi jeevinah krite kurmaschete tatra atmaninda bhavishyati. The jeevatma which is there, in that we will be disrespecting that jeevatma. Hence what Bhima does is, he does not cross over the monkey, he slightly touches the monkey and wakes up, tells him, please turn the little bit that side, I have to go to the other side of the forest, I have to cross over and go to that side. That is when the old monkey tells, I am very tired, I cannot do that. What you do is you put my tail to the other side itself. Then when Bhimaha prayatnam karoti saha gachchan neva asti tatra langulastu ativa mahaduram prati gacchati. The tail which is there keeps on spreading and he is not able to find the end. Then he comes to this part of, he again comes to the middle. Saha anantram punaha vriddhaha kapihi vadati bhavan upari mama shiraha etavat paryantam, just bend my head and you can go that side. So he keeps on going to the other side and still finds the kapi being there spreading all over. He is not able to identify, he comes back to the middle. That is when he asks him, who are you? He says, I don't know, I am just sitting here. And he tells him that your spread is as big as the Setu, the bridge built by Rama. How can I cross you? So he, at that time kapi asks, who is Rama? So at that time Bhima tells, you don't know even Rama, and he starts telling the story of Ramayana, which is when, hearing the story of Ramayana, this kapi becomes very enthusiastic, very happy, and starts dancing. When Bhima suddenly realizes that, when he is finishing the story, he says, you have a great strength, I am not even able to move your tail, and you have a great spread, you are a Mayavi who can spread across. And on hearing Ramayana, you are getting so enthusiastic and you are jumping and hearing the name of Rama, who are you, he asks. That is when the kapi tells about himself, that I am Hanuman himself, and whenever I want to hear Ramayana, I get so excited, and I wanted to hear that Ramayana from your mouth, O Bhima, which is why I played this. Then Bhima prostrates him. Bhimaha namaskaram karoti tada Bhimaha vadati kripaya asmakam yuddhe sahayam kurvantu bhavantaha iti yada saha prichati tada हनुमान् वदति, मम कार्यं तावत् इदानीं रामसेवा, रामायणकथाश्रवणं, यत्र यत्र गुणातकीर्तनं तत्र तत्र मया उपस्थानं कर्तव्यम् इति सः वदति. इतोपि ततोपि इवन् देन् वाट् ऐ विल् डू इस् ऐ विल् कम् अण्ड् स्टे इन् द फ्लाग् आफ् अर्जुन अण्ड् ऐ विल् कीप् आन् रोरिङ्ग् सो दट् वन् वेन्नवर् देर् इस् एनी विघ्न आर् एनी क्रैसिस् द रोर् विच् ऐ गिव् विल् आल्वेस् रिमूव् आल् द क्रैसिस् अण्ड् गिव् दट् स्ट्रेन्त् टु द पाण्डवा आर्मी. सो कपिध्वजः एवं हनुमान् तत्र अर्जुनस्य ध्वजे आगत्य उपविशति. अनन्तरं सः मध्ये मध्ये गर्जनं करोति, युद्धस्य उत्साहं वर्धयति, पाण्डवानां बलमपि वर्धयति. एवं कपिध्वजः. दिस् इस् द स्माल् हिण्ट्, विशेष टिप्पणी बिहैण्ड् द वर्ड् कपिध्वजः. धनुः उद्यम्य, वि सा दट् धनुः उद्यम्य अगेन् धनुः इस् द गाण्डीव धनुस् विच् वास् गिवन् टु अर्जुन बै अग्नि वेन् ही डिड् द काण्डववनस्य. अग्निः तत्र यदा आज्याधिकं भवति, देर् टु मच् आफ् सेक्रिफैसस् ड्यूरिङ्ग् दट् टैम् मेक्स् अग्नि eat lot of ghee, ghritam, and because of which tatra kinchit ajirnam bhavishyati. Tada अर्जुनः किं करोति, खाण्डववनं भस्मीकरणाय अग्निकृते ददाति. ही गिव्स् द एण्टैर् खाण्डव फारेस्ट् सो दट् अग्नि केन् बर्न् इट् औट्. तदा अग्निः बर्न्स् दट् खाण्डव फारेस्ट् एण्ड् दट् इस् वेन् ही गिव्स् द गाण्डीव बो टु अर्जुन एण्ड् दट् गाण्डीव बो अर्जुन टेक्स् इट् एण्ड् कीप्स् वित् हिम् एण्ड् ही इस् आल्सो वित् धनुः उद्यम्य. उद्यम्य अगेन् वी नो दट् उद्योगिनं पुरुषसिंहं लक्ष्मीः उपैति, विजयलक्ष्मीः अत्र उद्योगिनं. To show that he is also ready to fight, to show that his intentions are also very very clear, and he is not here. The initial objective of of Arjuna is not just to listen to Bhagavad Gita. His original intention was to see who are all standing there in the army and to fight them. Evam dhanuhu udyamya clearly shows the intention of Arjuna to go and fight the Kauravas and get back his kingdom. एवं धनुः उद्यम्य, एवं विजयलक्ष्मीः कृते सः उद्योगिनं पुरुषसिंहम् उपैति इति उक्त्या सः अपि युद्धे सज्जीकृतः अस्ति इति अयं द्योतयति. धनुः उद्यम्य इति पदं तस्य युद्धसज्जीकरणं द्योतयति. ऋषिकेशः वि हव् सीन्, अच्युत आल्सो वि सा द डिफरेण्ट् कनोटेशन्स् आफ् द वर्ड् अच्युत एण्ड् हौ एज़् अ मार्क् आफ् रेस्पेक्ट् आल्सो अर्जुन इस् टेलिङ्ग् इस् अड्रेसिङ्ग् कृष्ण, दो कृष्ण इस् सिटिङ्ग् एस् द चारियटर्, अर्जुन एण्ड् द पाण्डवास् रियलैज़् हिस् इम्पार्टेन्स् एण्ड् इट् इस् नाट् एस् डिस्रेस्पेक्ट् दट् इस् ही इस् आर्डरिङ्ग् कृष्ण टु गो अण्ड् स्टे कीप् द चारियट् इन् बिट्वीन्. ही इस् रिक्वेस्टिङ्ग् कृष्ण टु टेक् द चारियट् इन् बिट्वीन् द टु आर् and place it in the center. Mahipate, again we saw that Sanjaya uses these words very intelligently. Whenever Dhritarashtra's mind gets a little bit tensed at that time, Sanjaya uses the word Hey Mahipate, O Lord of Earth, which still shows that Dhritarashtra is still the king of Hastinapura, is the, still the king of all the entire Rajya of the Kauravas. So that is the importance of the word Mahipate. Evam asmabhi tatra vimshati ekavimshati shlokau drishtau. इदानीम् एकवारं विंशति एकविंशति श्लोकान् पठामः, नन्तरं द्वाविंशति श्लोकमपि पठामः. अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः. ऋषिकेशं तदा वाक्यम् इदमाहमहीपते अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत. Till here, we have seen in the previous class. Tatra etat paryantam kimapi samshayam asti chet, any doubts in shloka 20-21, you can ask now. No chet, tatra mail madhya api preshitum shakyate, any doubts in the previous classes also, we can clarify. Okay. इदानीं द्वाविंशति श्लोकं पश्यामः। श्लोकं वदामि, सर्वे अनुवदन्तु। यावदेतान्निरीक्षेऽहम् योद्धुकामानवस्थितान् कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे पूर्णतया एकवारं वदामः। तत्र किञ्चित् मुद्रण दोषः अस्ति। योद्धुकामान् इति भवितव्यम्। यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे। द्विवारं पठन्तु, पदच्छेदं स्वयमेव कुर्वन्तु। पदच्छेदं सरलमस्ति वा पश्यामः वा। भवतु, श्लोका नंबर 22 ऑफ 47 श्लोकास ऑफ 700 श्लोकास पदच्छेदः। ओके, अत्र अन्यश्लोकस्य पदच्छेदः दत्तमस्ति। भवतु, तदपि साधु कृते एव भवति। The first line is different, kripaya kshamyatam, but let us try to do the padachheda by ourselves. Can we do the padachheda, any of us? Prathamataya tavat, yavat, yavat, etan, next, nirikshe, अहं योद्धुकामान् समीचीनं, यावत् करेक्ट्, यावत् एतान् निरीक्षे अहं योद्धुकामान् अवस्थितान्। वेरि सिम्पल्। कैः मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे, विच् इस् आल्सो सिम्पल् अस्ति, सरलमस्ति। शीघ्रं तत्र कर्तृपदं क्रियापदं शीघ्रं वदन्तु, कर्मपदमपि वदन्तु। कर्तृकर्मक्रिया सरलमस्ति। कर्तृकर्मक्रिया योद्धव्यं, योद्धव्यं विल् नाट् बि क्रिया बिकास् अहं निरीक्षे, वेरि गुड्। योद्धव्यम् इस् शुड् टिल् युद्धं कर्तव्यं, योद्धव्यम् इट् विल् बिकम् तव्यत् प्रत्यय इस् वाट् यु गेट्, विच् विल् नाट् बि अ क्रियापद डैरेक्ट्लि डिफैस् लैक् मेहता आण्टी स्टेल्ड् अहं निरीक्षे, सम्यगस्ति, अहं कर्तृ, निरीक्षे क्रिया, कान् निरीक्षे कर्मपदम्। We have to put the words what nirikshe, whom nirikshe. So, what or whom, if we put the question to nirikshe, nirikshe is if I put the questions what and whom to the word nirikshe, nirikshe is I will see, I will like to see. Or I see, till the time I see, that will be a better translation actually. Till the time I see, nirikshe, yavat eta nirikshe, I see, tavat tatra sthapaya, kan nirikshe, whom. Putting the word whom to the question, to the word, verb, nirikshe, what or whom, if I get answer, that will be the karmapadam. Evam karmapadam, yodhukaman, avasthitan, very good, correct, yodhukaman, evam. कीदृशान् योद्धुकामान् अवस्थितान् योद्धुकामान् तत्र स्थितान् योद्धुकामान् अहम् योद्धुकामान् निरीक्षे ऐ लैक् टु सी द पीपल् हू आर् डिज़ैर्स् टु फैट् कीदृशान् योद्धुकामान् अवस्थितान् योद्धुकामान् कुत्र अस्मिन् रणसमुद्यमे तैः सह किं कर्तव्यं योद्धव्यम् एवमेव वाक्यं भवति अतीव सरलं वाक्यम् अगेन् अ सिम्पल् सेण्टेन्स् विच् गिव्स् द इन्स्ट्रक्षन् टु कृष्ण अर्जुनः ऋषिकेशं प्रति अच्युतं प्रति एतद्वाक्यं वदति तत्र मे रथं तत्र मध्ये स्थापय कियत्पर्यन्तं टिल् हौ लाङ्ग् शुड् ऐ कीप् द चारियट् देर् वेन् इफ् दट् क्वशन् इस् आस्क्ड् यावत् अहम् अस्मिन् रणसमुद्यमे बै द टैम् ऐ इन् दिस् बेटल् फील्ड् कैः सह मया योद्धव्यम् इति एतान् अवस्थितान् योद्धुकामान् निरीक्षे हू आल् शुड् ऐ फैट् अलाङ्ग् वित् दट् ऐ वाण्ट् टु सी एण्ड् अमङ्ग्स्ट् द पीपल् हू हेव् कम् इन् हियर् ये अत्र अवस्थितान् तेभ्यः अमङ्ग्स्ट् दोस् पीपल् कैः सह मया योद्धव्यं वित् हूम् आल् शुड् ऐ फैट् ओके अर्जुन केनाट् गो एण्ड् फैट् वित् सम् इन्फेण्ट्री सोल्जर् आर् वित् अ एकरथि आर् लघुरथि एण्ड् आल् ही केन् ओन्ली फैट् वित् द अदर् महारथीस् सो हू आर् द महारथीस् तान् सर्वान् द्रष्टुं सः उद्युक्तः अस्ति अतः अर्जुनः पाण्डवः सः अच्युतं हृषीकेशं कृष्णं प्रति वदति एवम् अहं यावत् अहं दिस् श्लोक गिव्स् द टैमिङ्ग् टिल् वेन् द चारियट् शुड् बि kept in the center of the battlefield yavat etavat paryantam yavat paryantam aham pashyami tavat paryantam bhavata ratham madhye sthapitavyam so it gives a timing yavat aham arjunah asmin rana samudyame asmin yuddhe asmin kurukshetre asmin dharma kshetre kurukshetre अस्मिन् रणसमुद्यमे युद्धे कैः सह कैः कौरवसैन्ये कैः महारथैः सह अलाङ्ग् वित् हू आल् ग्रेट् वारियर्स् इन् द कौरवसैन्या मया योद्धव्यं मया युद्धं कर्तव्यं दट् बेटल् शुड् बि फाट् बै मी एतान् अमङ्ग्स्ट् हूम् अमङ्ग्स्ट् द पीपल् हू हव् असेम्बल्ड् हियर् एतान् अवस्थितान् योद्धुकामान् तान् निरीक्षे I see them. I would like to see them. Okay. Eva masti. I would like to see these people. Tavadeva. Ativa saralam vakya masti. The overall sentence is very simple. Aham nirikshe. I see. I like to see. Aham nirikshe. I see. Kaan nirikshe. योद्धुकामान् निरीक्षे के कीदृशान् योद्धुकामान् एतान् अवस्थितान् योद्धुकामान् निरीक्षे ऐ लैक् टु सी दीस् पीपल् हू आर् स्टाण्डिङ्ग् टु फैट् वै शुड् ऐ सी देम् कैः सह मया योद्धव्यं विद् हूम् आल् शुड् ऐ फैट् टु सी दट् ऐ वाण्ट् टु सी देम् कुत्र निरीक्षे अस्मिन् रणसमुद्यमे निरीक्षे कः निरीक्षे अहं निरीक्षे कियत्पर्यन्तं निरीक्षे यावत् तत्र ते सर्वे सन्ति अहं निरीक्षे तावत्पर्यन्तं भवता रथं स्थापितव्यम् इति सः वदति एवं पदपदार्थः अस्माभिः दृष्टमस्ति आङ्ग्लभाषार्थः अपि अस्माभिः दृष्टमस्ति यावत् अगेन् अव्ययं यावत् तावत् एवं दीस् आर् कनेक्टेड् वर्ड्स् इन् द अव्यया सेट् when the words are we would generally use these words connectedly yada tada yatha tatha yavat tavat yadi tarhi these are connected words which are generally used to complete the sentence if we take shloka 21 and 22 together then we will be telling yavat aham asmin rana samudyame kaihi saha maya yodhavyam iti nirikshe tavat he achyuta madhye ratham sthapaya we can connect that sentence fully together and complete the sentence also evam that is why yavat shabda is used yavat avyayam asti again sadrasham tashulingeshu sarvasu cha vibhaktishu vachaneshu cha sarveshu yat na vyeti tat avyayam that which does not be declined in any of the linga vibhakti vachana that gets called as avyayam aham we know that dakarantah त्रिलिङ्गकः अस्मत्शब्दः त्रिषु लिङ्गेषु समानः शब्दः अस्मत्शब्दः प्रथमाविभक्ति एकवचनम् अहम् अस्मिन् इदं शब्दः सर्वनामशब्दः मकारान्तः पुल्लिङ्गः सप्तमी एकवचनं रणसमुद्यमे अस्मिन् रणसमुद्यमे बोत् आर् कनेक्टेड् वर्ड्स् देर् फोर् बोत् आर् इन् पुल्लिङ्ग सप्तमीभक्ति एकवचनम् अस्मिन् रणसमुद्यमे कैः सह सह सहयुक्ते तृतीया सह साकं सार्धं समं सहयोगे तृतीया सहयुक्ते अप्रदाने वेरियस् सूत्रास् केन् बी कनेक्टेटेड् हियर् अण्ड् लिङ्क् टु दिस् सह साकं सार्धं समं वेन् दीस् वर्ड्स् आर् यूस्ड् वि शुड् बि यूसिङ्ग् विच् विभक्ति एनी आन्सर्स् वेन् दीस् फोर् वर्ड्स् एनी आफ् दीस् वर्ड्स् गिविङ्ग् द मीनिङ्ग् आफ् अलाङ्ग् वित् इस् यूस्ड् विच् विभक्ति शुड् बि यूस्ड् फार् द रिलेटेड् नामपदम् तृतीया वेरी गुड् सो वी हाव् टु यूस् तृतीया विभक्ति तदर्थमेव कैः सह समीचीनं कैः सह मया योद्धव्यं तदर्थमेव हि हेस् यूस्ड् अण्ड् सिन्स् हि इस् टाकिङ्ग् अबौट् कौरवसैन्य अण्ड् मेनी वारियर्स् तत्र बहुवचने अस्ति तावदेव अतीव सरलमस्ति पुल्लिङ्ग तृतीया बहुवचनं किं शब्दस्य मकारान्तः पुल्लिङ्गः तृतीया बहुवचनं सः इति पदं तावत् अव्ययं सः साकं सार्धं समम् आल् फोर् आर् अव्ययम् मया मया योद्धव्यं मया अगेन् दकारान्त त्रिषु लिङ्गेषु समानः अस्मच्छब्दः तृतीयाविभक्ति एकवचनं योद्धव्यं युद्धं कर्तव्यम् अगेन् युद्धं कर्तव्यं तव्यत् प्रत्या विल् सीन् द कृदन्तभागा देन् हियर् इट् इस् योद्धव्यम् अकारान्तः नपुंसकलिङ्गः प्रथमाविभक्ति एकवचनं योद्धव्यं कैः सह मया योद्धव्यम् इट् इस् इन् कर्मणि प्रयोगः अस्ति अत्र मया योद्धव्यं कैः सह मया योद्धव्यम् इति तत्र कर्मणि प्रयोगो वर्तते एवं योद्धव्यम् अति इट् इस् इन् एकवचनं एतान् अवस्थितान् योद्धुकामान् आल् आर् कनेक्टेड् वर्ड्स् पुल्लिङ्गद्वितीयाविभक्ति बहुवचनं एतान् इस् एतत् शब्दः अवस्थितशब्दः योद्धुकामशब्दः तावदेव आल् आर् अकारान्तः पुल्लिङ्ग सिम्पल् शब्दास् अवस्थित योद्धुकाम वि विल् सी द विग्रहवाक्य आफ् अवस्थित अण्ड् योद्धुकाम अण्ड् द कृदन्तभाग इन् द नेक्स्ट् निरीक्षे इण्ट्रेस्टिङ्ग् क्रियापदं निरीक्षे लुक्स् अ लिटिल् बिट् लैक् लृट् लकारं बट् इट् इस् नाट् लृट् लकारं लेट् अस् बी केर्फुल् इन् दट् विच् इस् द लकार पुरुषवचन फस्ट् फार्म्स् इफ् वि केन् टेल् प्रथमपुरुष इफ् वि केन् टेल् निरीक्षे यु केन् सी द आन्सर् हियर् इट् एनिवेस् इट् इस् लट् लकार उत्तमपुरुष एकवचनं वाट् विल् बी द प्रथमपुरुष डाश् 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 इट् इस् लट् लकार आत्मनेपदि करेक्ट् आत्मनेपदि इट् इस् एन् आत्मनेपदि लट् लकारः निरीक्षते निरीक्ष्येते निरीक्षन्ते समीचीनं निरीक्षते निरीक्ष्येते निरीक्षन्ते निरीक्षस्ये निरीक्ष्येथे निरीक्षध्वे निरीक्षे निरीक्षावहे निरीक्षामहे एवम् ईक्ष दर्शने इति धातुः ईक्ष दर्शने इति धातुः निर् इति उपसर्गपूर्वक ईक्ष दर्शने इति धातोः आत्मनेपदि लट्लकार रूपाणि अगेन् ईक्ष बिलाङ्ग्स् टु द्वादिगण इट् इस् अ भ्वादिगण धातु बिलाङ्ग्स् टु द फस्ट् गण विच् इस् भ्वादिगण सो वेरि सिम्पल् ते इते अन्ते से इथे द्वे ई वहे महे विल् बि द फार्म्स् इन् लट् आत्मनेपदि सरलमस्ति अतीव सिम्पल् वाट् यु डू इन् यर् शोभते आर् एनी अदर् धातु द सेम् थिङ्ग् निरीक्षे बट् बिकास् आफ् दट् क्ष समटैम्स् वि मे बि कन्फ्यूस् दट् इट् इस् इट् मे बि द फ्यूचर् फार्म् बट् इट् इस् अ सिम्पल् निरीक्ष बिकास् द धातु इट् सेल्फ् इस् ईक्ष दर्शने ईक्षदर्शने इस् द धातु एवं निरीक्षे उत्तमपुरुष एकवचनम् अग्रे गच्छामः वा भवतु उत्तमपुरुष उत्तम प्रथम इत्युक्ते एतत् उत्तमपुरुष या निरीक्षे इति पदम् उत्तमपुरुषे अस्ति एकवचने अस्ति उत्तमपुरुष एकवचने अस्ति समीचीनं समीचीनं निरीक्षे उत्तमपुरुष एकवचनं करेक्ट् एकवचनं करेक्ट् करेक्ट् ओके फैन् ओके अर्थं पश्यामश्चेत् सरलं वर्तते यावत् अहम् अस्मिन् रणसमुद्यमे कैः सह मया योद्धव्यम् इति ज्ञातुम् अत्र स्थितान येतान कौरव सैन्यान योद्धुकामान पश्यामि निरीक्षे पश्यामि वेरी सिंपल बोतार लट्लकार यावत अहम पश्यामि तावत हे अच्युत मम रथम स्थापय टिल देन प्लीज प्लेस मई रथ. This is what he is asking them. I may see those who stand here prepared for the war on this eve, with whom all I have to fight. Samichinam idanim tatra yadi sandhibhagam pashyamaschet yavadetan asti yavat first letter of the varga replaced by the third letter of the varga you get yavat etane yavadetane jashva sandhi ativa saralam asti vak ishah vagishah evam prathama aksharam vargasya prathama aksharasya sthane vargasya tritiya aksharah adeshah bhavati jashva sandhi bhavati. We know this very simple sandhi vyanjana sandhi one of the first sandhi in vyanjana sandhi. निरीक्षेहम् निरीक्षे एकार ओकार अंतात् पूर्वपदात् उपरि तत्र इन फ्रंट ऑफ एकारांत और ओकारांत पदा निरीक्षे एकारांत और ओकारांत इन फ्रंट ऑफ दैट व्हेन वी हैव द लेटर अ व्हेन वी हैव द लेटर अ इज रिप्लेस्ड बाय अवग्रह चिन्ह व्हिच इज यस यस मार्क व्हिच इज कॉल्ड अवग्रह चिन्ह देयरफॉर वी गेट पूर्व रूप संधि. Only for ekaranta or okaranta this is applicable. Be very careful on that. Only then it becomes pururupa sandhi. Otherwise, other sandhi forms will take care. It is not default that whenever avagraha chinna is there, we have to use pururupa sandhi. That is not a default. Let us be careful on that. Next, kair maya, kaihi plus maya, visarga sandhi, very standard sandhi. We have seen similar sandhis like that. Visarga, visargaha prathamataya sakaraha bhavati, kaihi, visarga becomes kais, then it will become kair. Refa sandhihi, sasajasho, ruruhu, ra gets replaced there. Kair maya, visarga sandhihi. Agre pashyamaschete, samasabhagaha, rana samudhyame, rana samudhyame. युद्ध सन्नद्ध क्षेत्रे रण समुद्यमे रणस्य समुद्यमः पीपल हु हैव असेंबल्ड फॉर द वॉर वॉर एन असेंबली ऑफ वॉर रिलेटेड पीपल असेंबली ऑफ द वॉर एवं रणस्य समुद्यमः एवं स्वीकर्तव्यम् रणाय समुद्यमः इत्यपि एन ऑल्टरनेट कैन बी told people who have assembled for the sake of war if we take but ranasya samudyamah is more traditional split which is given here ranasya samudyamah tasmin ranasya samudyamah rana samudyamah tasmin rana samudyame tashati tatpurusha samasah yodhu kaman yuddham kartum kaman yuddham kartum yodhum first word will be yuddham kartum yodhum so you'll have a tumanantavyam there yodhum kamah yodhum kamah yesham te yodhu kaman so again very simple yuddha means war kama means desire to fight that war we are desire here we are not talking about the war or the desire we are not referring to that we are referring to a set of people who are desirous of doing the war therefore we have to talk about anya padartha pradanah therefore bahuvrihi samasa comes into place therefore we have to use the word yad and tad yesham te te yoddhu kamaah tan yoddhu kaman युद्धं कर्तुं योद्धुं तुमुनन्ताव्यं योद्धुं कामः येषां ते योद्धुकामाः तान् योद्धुकामान् बहुव्रीहि समासः. होप द स्पीड इज फाइन होप इट इज नॉट टू फास्ट. योद्धव्यं वी हैव सीन युद्ध प्लस तव्यत तव्यत योद्धव्यं भवति तव्यत प्रत्यय कृदन्त विध्यर्थक कृदन्त यदि कृदंता चार्ट पश्यामश्चेत पुनः वी हैव ऑलरेडी डिस्कस्ड कृदंता चार्ट अगेन इन दैट भूत कृदंता वर्तमान कृदंता भविष्य कृदंता विध्यर्थक कृदंता कृदंताव्यय इन दैट अमंगस्ट दोस फाइव वी आर इन विध्यर्थक कृदंता इन विध्यर्थक वी हैव थ्री टाइप्स तव्यत अनियर एंड या इन तव्यत वी हैव यूज्ड दिस योद्धव्यम तव्यम युद्धम कर्तव्यम योद्धव्यम पाठम पठितव्यम पाठम प्लस तव्य रिल्विकम पठितव्यम पठ प्लस तव्य रिल्विकम पठितव्यम कर्तव्यम गंतव्यम एवं योद्धव्यम इति भवति. ज्ञातं वा अवस्थितः वी हैव ऑलरेडी सीन दिस अवस्थितः व्हाट इज द कैन वी टेल द स्प्लिट ऑफ द वर्ड व्युत्पत्ति वक्तुं शक्यते वा अवस्थितः डैश प्लस डैश प्लस डैश थ्री डैश सम हिंट आई एम गिविंग यू अवस्थितः व्हाट विल दैट बी We have seen this before. Avasthitaha. Shigram vadantu. Ava plus tha plus ta pratyaya. Very good. Correct, correct. Ava upasarga purvaka stha dhatoho. Stha gati nivrittau is a dhatu. Again, ava plus stha dhatu plus ta pratyaya kartari. मध्ये अवस्थितः भविष्यति अवस्थितः हियर अगेन पुल्लिंग प्रयोगः अवस्थितः पुल्लिंग त्रिषु लिंगेषु भवति अवस्थितः अवस्थिता अवस्थितम् हियर इट इज अवस्थितः अगेन द फॉर्म इज अवस्थितान योद्धुकामान एतान द्वितीया विभक्ति बहुवचन मध्ये तद् भवति वेरी गुड अव प्लस स्था प्लस त प्रत्यय अवस्थितः भूतकृदन्त त तवत यू हैव टू फॉर्म्स In that, ta is being used here. Ta pratyaha. Fine. Evam agre gachhamaha. Tatra kaihi yodhavyam is the vishesha tepani here. Tatra arjunaha pashyati. With whom all should I fight? Tatra evam various bhashyakaras have given various connotations to that. Again, first the kaihi saha maya yodhavyam. Again, clearly shows the intention, very similar to Dhanuhu Udyamya, Kaihi Yodhavyam. It shows the clear intention of Arjuna that he is here to fight the Yuddha. He is not here for any Vishada, but he is here to fight the Yuddha at that time, which is what is Arjuna's intention. And then, it also says that he wants to be see who are the Maharathis who are still surviving in the Kaurava army. When Duryodhana was telling the names of so many Maharathis, he wanted to again see the Maharathis once, with whom all he can fight. Again, Yuddha Dharma and Kshatriya Dharma, Prathamataya, who is he fighting with? Is that person capable enough? Is he strong enough to be fighting? A Kshatriya should never fight a weaker person and boast himself. He should always try to fight a stronger person or equal to him or at least stronger to him. That gives shobha to a Kshatriya. Evam yuddha dharmam api asti. Tatra prathamataya drashtavyam asti. Kaisaha asmabhi yuddham kriyate. Keke santi. Keke maharathinaha santi sarve iti. Evam drashtavyam asti prathamataya. Tadanantaram eva yuddham kartavyam. एवं तत्र अर्जुन सीज विद हूम ऑल कैः सह मया योद्धव्यम् इति अपि अस्ति अगेन विद द हेल्प ऑफ कृष्णा व्हेन ही इज गोइंग टू बी प्लेस्ड इन द बिटल ही आल्सो वांट्स कृष्णा टू सी हु आर ऑल देयर एंड ही आल्सो वांट्स टू सी हु आर दोस पीपल हु आर गिविंग सपोर्ट टू दुर्योधन अधर्मरीत्या सह तत्र कृष्णं राज्यं स्वीकृतवान् ही टुक द एंटायर राज्य इन एन अधार्मिक वे एंड द अदर पीपल हु आर देयर हु आर सपोर्टिंग दुर्योधन आर आल्सो डूइंग सो बिकॉज दे आर डूइंग फॉर देयर वृत्ति धर्म बिकॉज दे आर हैव टू बी लॉयल टू देयर राजा बिकॉज ऑफ हिज दे आर डूइंग बट ही वॉन्ट्स टू सी के सन्ति ये जनाः तत्र दुर्योधनस्य साहाय्यं कुर्वन्ति ये अधर्मस्य साहाय्यं कुर्वन्ति के जनाः सन्ति इति तेन द्रष्टव्यमस्ति सो ही आल्सो वांट्स टू सी कैः योद्धव्यं बिकॉज एज अ रूल आफ्टर द त्रयोदश वर्ष एंड आफ्टर द अज्ञातवास दे हैड टू बी गिवन द किंगडम बैक विच इज वेन ही डिड नॉट गिव द किंगडम बैक वी नो दैट बैकग्राउंड स्टोरी वी नो वॉट ऑल हैपेंड एंड वाई दुर्योधन डिड नॉट गिव आफ्टर विच कृष्ण दूतकृते दौत्यं करोति सः कृष्णः दूतत्वेन गच्छति तत्रापि तत्र पञ्च ग्रामान् पृच्छति तत्र नॉट इवन अ नीडल पीस ऑफ लैंड विल बी गिवन इज व्हाट ही सेज विच इज व्हेन दीस पीपल have to wage the war because it is a dharma yuddha. Again, people are being troubled by Duryodhana. So, as a kshatriya dharma, again, Yudhishthira has to protect the citizens whom he is responsible for. Therefore, he has to save them from a bad king, which is Duryodhana. Therefore, it becomes dharma yuddha for Yudhishthira. Evam kaihi saha yodhavyam is the vishesha tippani, and these are the special notes which we can write for the phrase kaihi yodhavyam. Agre gachhamaha pashyamaha. Let us take shloka number 23. Pashyamaha. Ekavaram vadami punaha anuvadantu. Yotsyamanan avekshehaṁ ya etetra samagataha. पुनः अनुवदन्तु. धार्तराष्ट्रस्य दुर्बुद्धे युद्धे प्रियचिकीर्षवः. श्लोकं द्विवारं पठन्तु, पदच्छेदं कुर्वन्तु, त्रिकर्मक्रियापदं शीघ्रं अन्वेषणं कुर्वन्तु. Padachedaha, we are in shloka number 23 of the 47 shlokas of first chapter of the total 700 shlokas in Bhagavad Gita. Yotsyamanan avekshe aham yete atra samagataha dhartarashtrasya durbuddhehe yuddhe priyachikirshavaha. Tavadeva shigram kartrakarma kriya. Aham noun avekshe samichinam samagataha. Very good. Aham samagataha avekshe. I wish to see the people who have come here. I see people. Aham samagataha priyachikirshavaha janaha tatra avekshe. Aham avekshe samichinam asti. Very very simple. Very same dhatu which we have already seen in nirikshe, tarev bhavati avekshe api, tatra only the upasargas are different. Yadi anvayam pashyamaschete, aham yotsyamanan avekshe will be the sentence like very similar to what we saw. Aham yodhukaman nirikshe, aham yotsyamanan avekshe. Again same. The intention of both shloka number 22 and 23 is same. But shloka number 22 tells him the time till when Arjuna should keep the chariot. Krishna should keep the chariot in between. So 22 is more time based. 23 will be more reason based. Why should I see? Kimartham avekshe? Why should I see? Because dudbuddhehe dhartarashtrasya yuddhe ye priyachikirshavah santi taha ye samagataha tan yotsyamanan aham avekshe. So the reason, 23 gives us the reason as to why he wants to see that. Durbuddhehe dhartarashtrasya. Durbuddhehe, again that is the reason which we saw in kaihi yodhavyam. Durbuddhehe yataha saha dushta buddhi yutaha adharma marge gachati saha dushta buddhihi kutsita buddhihi kubuddhihi dushta buddhihi durbuddhihi. Evam durbuddhehe adharma ritya yaha gachati saha durbuddhehe yaha sva svena ukta vakyam nacharati saha durbuddhihi. One who does not keep his promise, here he is a durbuddhi. Durbuddhehe dhartarashtrasya, atra dhartarashtra hai tukte duryodhanaha dhritarashtrasya apatyam puman duryodhanaha dhartarashtra hai. Durbuddhehe dhartarashtrasya, in the team or in the sainya of Duryodhana, ke yuddhe priyachikirshavah, who are all wanting to fight in the team of Duryodhana, of this Durbuddhi Duryodhana, of this evil minded Duryodhana, who all want to fight in his team, in the priyachikirshavah. Priyachikirshavah, wishing to please Duryodhana, wishing to please Dhritarashtra. Priyachikirshavah, kartum ichchavah, chikirshavah, sannanta, we will see it later. Priya Chikirshavaha, wanting to do pleasing, wanting to do Priya two Duryodhana or Dhritarashtra, those people who all are trying to fight in the side of Duryodhana, yete atra samagataha, who are all have come and assembled here, tan sarvan yotsyamanan yuddham kartum ichchamanan yuddham karishyamanan yuddham kartum, again yotsyamanaha yuddham kartum ye sannaddaha te yotsyamanaha tan aham avekshe, I want to see them, I say I will like to see them. Why? Because I want to see who are these people who are, though Duryodhana is a durbuddhi yukta hai, yadyapi saha adharma marge gachati, tathapi ye janaha tam priyam kartum ichchavaha santi, who want to do something, please him, Duryodhana or Dhritarashtra. I want to see who are those people who are supporting adharma and who are doing this. Let us see that, let us see those people and I want to fight with them. Saha vegeneva gachati, natu vishadena atra. Till this loka 23 or even still some shlokas, till Krishna specifically takes the name of the people, till then Arjuna is still in yuddha utsaha eva asti. Till now vishada has not come in, Arjuna vishada yoga, till now vishada has not set in. We have to know that very clearly. Evam pashyamaha durbuddhehe durbuddhehe dhartarashtrasya, connected word evam shatpullinga shatyabhakti ekvachana, durbuddhi ikaranta dhartarashtra akaranta, yuddhe nabumsakalinga saptami ekvachanam yuddhe, we can see phale priya chikirshavaha chikirshuhu chikirshu chikirshavaha guruhu guru guravaha ukaranta pullinga prathama bahuvachanam ye yete ye yachabdaha yachabdaha yete yetachabdaha tatra dakarantah ubhavapi pullinga prathama bahuvachanam ye yete atra avyayam atra, again location avyayam atra tatra atra tatra sarvatra ekatra, all these when tra is used, tra like we saw da kalarthe, tra will be saptamyarthe or location giving the place where it is there. Atra samagataha samagataha, all assembled, again samagataha samagatau samagataha samagataha, pullinga prathama bhakti bahuvachanam aham asmat prathama bhakti ekvachanam, yotsyamanan etan yotsyamanan yodhukaman avastitan, all these are connected, pullinga dvitiya bhakti bahuvachanam, iksha darshane dhatoho latlakara atmanepadi rupani uttama purusha ekvachana rupani, we have already seen this in detail. Agre gachhamah edipshamaschete yuddham kartum yeye sannaddaha santi te sarve tan sarvan tatra ye durbuddhehe duryodhanasya priyam kartum ichchavah santi te sarve tan sarvan aham drashtum ichhami tan sarvan aham pashyami. Arthah sandhivagah avekshe aham avekshehaham pururupa sandhi, again ye antah yete atra, similarly pururupa ye ete atra, again ideally we have seen it before also, a similar case we have seen before, when A plus A is joining, we do not have Savarna Dirgha Sandhi, because Savarna Dirgha Sandhi kevaha kevalam akaha Savarna Dirgha a e u rilr ayun rilrk kevalam tatra akaha Savarna Dirgha bhavati natu a om krite na bhavati. Atra evam A plus A should have ideally come into, what would have should have been the ideal result, A plus A, ideally we should have got ay samichinam ay ay av av, therefore ayavaya vadeshande bhavati yanta vanta, we should have got ideally, but then what happens later on, ye etetra tatra yakarasya lopah bhavati ay, that form happens actually first, then in that ay which comes, that ya which is there gets lopa, and then the prakriti bhava gets reinstated as it is, and it states that ya etetra evam yada vayam shlokam vadamah tatra consciously vaktavyam yotsyamanana veksheham ya etetra samagataha, there should be a split second gap between ya etetra ya etetra samagataha evam tatra prakriti bhavah bhavati tatra lopah bhavati yakarasya lopah lopashakalyasya evam lopah bhavati. Next durbuddhehe yuddhe durbuddhehe visargah sakaradeshah refatvena parinamitah bhavati durbuddhehe yuddhe durbuddher yuddhe गुरुरेव गतिर गुरुमेव बजे गतिर गुरुमेव सिमिलरली विसर्ग बिकम्स रेफ आदेश फाइनली गेट्स डन प्रिय चिकीर्षव प्रिय चिकीर्षव प्रिय टु डू द प्रिय प्रियवन्नु माडलु एवं प्रिय चिकीर्षव टु डू प्रिय सो देर फोर द्वितीय ऑब्जेक्ट वाट टु डू वाट प्रिय टु डू प्रिय एवं द्वितीय इट बिकम्स एन ऑब्जेक्ट द्वितीय तत्पुरुष समासः प्रियं चिकीर्षवः चिकीर्षवः कर्तुम् इच्छवः सन्नन्ता विच इज नॉट मेंशन्ड हियर वी ऑल नो इच्छवः यदा भवति तदा सन्नन्त प्रयोगः भवति चिकीर्षवः प्रियं चिकीर्षवः प्रियं कर्तुम् इच्छवः चिकीर्षवः युद्धे युद्धे अगेन युद्धे युद्ध प्लस क्त युद्ध युद्धे भवति युद्ध अगेन क्त प्रत्ययः युद्ध धातोः क्त प्रत्ययः युद्धे तस्मिन् युद्धे नपुंसके भवति युद्धे इति भवति समागताः सम आ गम क्त सम उपसर्ग आ उपसर्ग पूर्वक गम धातोः क्त प्रत्ययः भवति समागताः वेरि सिंपल योत्स्यमानान् अगेन योत्स्य युद्धं करोति करिष्यति लृट्लकारः योत्स्यति योत्स्यतः योत्स्यन्ति इति स्वीकर्तुं शक्यते तत्र शानच् प्रत्ययः भवति शानच् प्रत्ययस्य उपयोगः योत्स्यमानाः योत्स्यमानः मानौ मानाः एवं शानच् प्रत्ययः अस्ति तान् योत्स्यमानान् धृतराष्ट्रस्य धार्तराष्ट्रस्य वि हव् आलरेडी सीन् धृतराष्ट्रस्य अपत्यं पुमान् धार्तराष्ट्रः तस्य धार्तराष्ट्रस्य एवम् अस्माभिः दृष्टमस्ति वि शुड् हव् कवर्ड् 24-25 आल्सो गान् लिटल् बिट् स्ली बट् वाट् वी केन् डू इस् 24-25 वी केन् जस्ट् टेल् वन्स् अ कीप् वी केन् सी इफ् यू केन् लर्न् द पार्ट् डू द नोट्स् अण्ड् सी द नोट्स् अण्ड् कम् सो देट् वी केन् ट्रै टु कवर् मोर् इन् द आगामिकक्षायां किञ्चित् अधिकतया तत्र कवर् कर्तुं शक्यते वा इति पश्यामः we can actually tell from the shlokas which we have already covered ekavaram shloka number 20 tah vadamah purnataya as much as possible let us try to tell the shlokas all the shlokas whenever possible again in the margashiramasa pratah tatra geeta parayanam margashiramase ativa labhaya bhavati geeta parayanam va nama sankirtanam margashiramase pratah pratidinam kartavyam यावत्पर्यन्तं भवति तावत् कुर्वन्तु कृपया इति प्रार्थये अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः हृषीकेशं तदा वाक्यम् इदमाह महीपते अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रियचिकीर्षवः सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति एवं श्लोक 24-25 अस्ति तत्र पदच्छेदः कर्तृकर्मक्रियां सर्वं चिन्तयन्तु तत्र निमेषमेकमेव अस्ति तन्मध्ये कर्तुं न शक्यते एतावत्पर्यन्तं समापनं कुर्मः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिः ध्रुवा नीतिर्मतिर्मम गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो सर्वेभ्यः राम 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 यत्किमपि संशयो वर्तते वा तत्र सजेशन्स् वर्तते वा किमपि अन्यथा कर्तुं शक्यते वा इति कृपया मेल् मध्ये सूचयन्तु If we can also have classes on the additional days, we will see. If we can have classes like on Fridays also, we will see, because we have to, the initial target was to cover at least the first three chapters by March end. That was our initial target. We seem to be going a little bit slow. If we can take it on Fridays also, we will just send a mail to everybody. Please let us know if it is possible. Thank you. Sarvebhyah Ram Ram Ram.